नमस्कारः. किरातार्जुनीयस्य प्रथमसर्गस्य उपान्तः श्लोकः, पञ्चचत्वारिंशः श्लोकः. न समयपरिरक्षणं क्षमं ते निकृतिपरेषु परेषु भूरिधाम्नः, हरिषु हि विजयार्थिनः क्षितीशा विदधति सोपाधिसन्धिदूषणानि. न समयपरिरक्षणं क्षमं ते निकृतिपरेषु परेषु भूरिधाम्नः, अरिषु हि विजयार्थिनः क्षितीशाः विदधति सोपाधिसन्धिदूषणानि. पूर्वस्मिन् श्लोके द्रौपदी एवम् उक्तवती आसीत्, यदि मम वचनं, यदि मम उपदेशं भवान् श्रोतुं न इच्छति चेत् सुखमेव क्षमामे, शान्तिः एव सुखस्य साधनम् इति चिन्तयति चेत् तर्हि एतत् धनुः त्यक्त्वा जटां धृत्वा अग्निकार्यं करोतु, होमं करोतु इति उक्तवती आसीत्. इदानीं तु वदति देशकालादिकं द्रष्टुम् इदानीं भवतः समयः नास्ति. इत्युक्ते अयम् उचितः कालः वा शत्रुनिग्रहणार्थम्, अयम् उचितः देशः अस्ति वा न वा, अहम् इदानीं समयः योग्यः समयः अस्ति वा युद्धार्थं वा, नो चेत् सन्धिकार्यं कर्तुं वा, प्रतिक्रियां कर्तुम् एषः कालः योग्यः कालः अस्ति वा, इदानीं करोमि वा नो चेत् अग्रे अनन्तरं करोमि वा, अस्मिन् देशे एव करोमि वा नो चेत् अन्यत्र कुत्रापि करोमि वा इत्यादिकं विषयं चिन्तयितुं, समयस्य निरीक्षणं कर्तुम् इदानीम् उचितः कालः न. इत्युक्ते आशु विधीयताम्, समनन्तरं सद्यः उद्यमः क्रियताम् इति. परेषु निकृतिपरेषु भूरिधाम्नः ते समयः समयपरिरक्षणं न क्षमं, ते समयपरिरक्षणं न क्षमं, क्षमं न उचितम् इति अर्थः. समयस्य परिरक्षणं, समयस्य निरीक्षणं, वेटिङ्ग् फार् द आप्ट् टैम् इति. ते तव इदानीं समयपरिरक्षणं न क्षमं न उचितं. कीदृशस्य तव इति एकं विशेषणमस्ति, भूरिधाम्नः. धाम इति पदस्य तेजः इति पूर्वमपि दृष्टवन्तः द्वित्रिषु स्थलेषु. भूरि इत्युक्ते अतितेजस्कः इति अर्थः, महान् तेजस्कः अस्ति, भवान् तेजस्वी अस्ति, तादृशस्य तव. भूरिधाम्नः इति षष्ठी विभक्ति एकवचनं, ते इति पदस्य विशेषणं. भूरिधाम्नः तवि महातेजस्कः महौजसः तेजस्विनः तव समयपरिरक्षणं न क्षमं. कदा समयरक्षणं न करणीयम् इत्युक्ते परेषु निकृतिपरेषु सत्सु इति सतिसप्तमी प्रयोगः बहुवचनेन, सप्तमी बहुवचनप्रयोगेन सतिसप्तमी सूचकं पदमस्ति. परेषु 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 इति द्विवारं दृश्यते. प्रथमं परेषु इति शब्दस्य शत्रुषु इति अर्थः, परः नाम अन्यः, शत्रुः इति अर्थे. शत्रुषु निकृतिपरेषु, अत्र निकृति इत्युक्ते कपटम् इति अर्थः, कपटं शाट्यम् इति अर्थः. निकृतिपरः इत्युक्ते कपट आचरणे तत्परः इति अर्थः. अत्र परः इति शब्दस्य तत्परः इत्यर्थः, तत्परः, निरतः, रतः, इन्वाल्व्ड् अथवा एङ्ग्रास्ड् इति अर्थे. कुत्र इन्वाल्व्ड्, कुत्र तत्परः सन्ति, निकृति कपट आचरणे. निकृतौ तत्परः, निकृतौ परः इत्युक्ते निकृतौ तत्परः, कपट आचरणे तत्परः, शाठ्ये तत्परः सन्ति. एवं शत्रुषु निकृतिपरेषु सत्सु, यदा शत्रवः कपट आचरणे तत्पराः सन्ति तादृशेषु समयेषु भूरिधाम्नः तव तेजस्विनः तव समयपरिरक्षणं न उचितम्. इदानीं शत्रवः तु पुनः पुनः कपट आचरणे निमग्नाः सन्ति, अतः अस्मिन् समये तव समयपरिरक्षणं, उचितसमयार्थं निरीक्षणं तु न उचितम् इति उक्त्वा तद् अर्थान्तरन्यासेन समर्थयति. हि यस्मात् विजयार्थिनः क्षितीशाः, विजयम् अर्थ्यते इति विजयार्थी, बहुवचनं विजयार्थिनः, विद्यार्थीव विद्यार्थी, परीक्षार्थी इति विजयार्थी, नाम जिगीषुः इति अर्थः, जिगीषवः क्षितीशाः, क्षितिः नाम भूमिः इति अर्थः, भूम्याः ईशः, क्षितीशाः भूमिपालाः, अरिषु शत्रुषु, शत्रुषु विजये किं कुर्वन्ति, सोपधि सन्धिदूषणानि कुर्वन्ति, क्षितीशाः सन्धिदूषणानि कुर्वन्ति राजानः विजयप्राप्त्यर्थं, विजयं प्राप्तुम् इच्छवः राजानः किं कुर्वन्ति, सन्धिदूषणानि कुर्वन्ति, विदधति इत्युक्ते कुर्वन्ति इति अर्थः, सन्धिं दूषयन्ति, सन्धिः इत्युक्ते अग्रिमेण्ट् ट्रीटी इति अर्थः, तस्य दूषणं कुर्वन्ति, तद् विघटयन्ति। अतः इदानीं वनवासम् इति यः सन्धिः कृतः आसीत्, द्वादशवर्षात्मकं वर्णवासम् एकवर्षात्मकम् अज्ञातवासम् इति यः सन्धिः कृतः आसीत्, तं सन्धिम् इदानीं दूषयित्वा युद्धार्थं युद्धार्थं वा किमपि उद्यमः क्रियताम् इति द्रौपद्याः निवेदनम् अस्ति। निवेदनम् इति वक्तुमपि न शक्यते, तस्याः इच्छा अस्ति, आज्ञा इति अपि वक्तुं शक्यते। कीदृशाः राजाः राजानः, अत एव भूरिदाम्नः इति पदस्य प्रयोगः, कारणं भवान् इदानीं महौजसः अस्ति, महा तेजस्विनः तव, यः शक्तः भवान् इदानीं केपबल् आफ् इति वक्तुमेव भूरिदाम्नः तव समयनिरीक्षणं परिरक्षणं न क्षमम् इति वदति। यः राजा अशक्तः अस्ति सः एव समयनिरीक्षणं करोति, भवान् तु भूरिधामा अस्ति, अतितेजस्वी अस्ति इति कृत्वा तव समयनिरीक्षणं तु न युक्तं, कथञ्चित् कार्यसाधनमेव प्रधानं भवति, अतः इदानीं कार्यसाधनं प्रधानीकृत्य भवता सन्धिदूषणं कृत्वा कार्यं कुरु। राजानः विजिगीषवः, विजिगीषुः विजयार्थिनः इति पदस्य विजिगीषु, विजिगीषवः राजानः शत्रुषु विजये सोपधि सन्धिदूषणानि विदधति इति वदति। सोपधि इत्युक्ते सकपटं, कपटसहितं ते कुर्वन्ति, सोपधि सन्धिदूषणानि विदधति इति बहुवचनप्रयोगः, विदधाति, विदधतः, विदधति इति धा धातोः वि उपसर्गपूर्वक धा धारणपोषणयोः इति धातोः लट्लकारः प्रथमपुरुषः बहुवचनं कुर्वन्ति इति अर्थे। अत्र समयपरिरक्षणम् इति पदस्य समयः इति पदस्य सन्धिः ट्रीटि अग्रीमेण्ट् इत्यपि अर्थः अस्ति, अतः तस्य परिरक्षणं नाम त्रयोदशवर्षाणां वनवासात्मकसन्धिः यः आसीत् तस्य परिरक्षणं तु न क्षमम् इति अर्थे अपि स्वीकर्तुं शक्यते, नो चेत् उचितसमयः वा, अयम् उचितसमयः वा इति उचितसमयस्य परिरक्षणम् इत्यपि भवितुमर्हति। अत एव प्रतिपदार्थे शपथ प्रतीक्षणम् इति अस्ति, एतावन्ति वर्षाणि अहं वनवासं करोमि इति शपथं दत्तमस्ति पाण्डवैः, तस्य प्रतीक्षणं तु न युक्तम्। समयपरिरक्षणं, प्रतिज्ञापरिरक्षणम् इत्यपि भवितुमर्हति इत्यपि वक्तुं शक्यते, प्रतिज्ञापरिरक्षणं, सन्धिपरिरक्षणं, समयपरिरक्षणं सर्वं समानम् अर्थं बोधयति। अर्थान्तर्न्यासालङ्कारः एवं परेषु शत्रुषु निकृतिपरेषु कपटतत्परेषु भूरिधाम्नः अतितेजस्विनः तव समयपरिरक्षणं, प्रतिज्ञार्थं परिरक्षणं, प्रतिज्ञायाः परिरक्षणम् अथवा सन्धेः परिरक्षणं तु न क्षमं, न युक्तं, न उचितं। हि यस्मात् विजयार्थिनः क्षितीशाः जिगीषवः राजानः अरिषु शत्रुषु विजये, विजये इति अस्माभिः अद्याह्रियते, सोपदि सन्धिदूषणानि कुर्वन्ति, सकपटं कपटसहितं सन्देहे विघटनं कुर्वन्ति. तेषाम् अग्रिमेण्ट् यत् आसीत् पूर्वं तस्य विघटनं कुर्वन्ति, तस्य नाशं कुर्वन्ति एव. कारणम् इदानीं तु तेषां प्रधानं कार्यं भवति शत्रुजयः इति. अतः इदानीं क्षमा तेषां उचितमार्गः नास्ति. अर्थान्तरन्यासः अलङ्कारः. अग्रे किरातार्जुनस्य प्रथमसर्गस्य अन्तिमः श्लोकः. अत्र पश्यामश्चेत् अन्तिमे तथा उपान्तिमे श्लोके भिन्नं छन्दः दृश्यते सर्वदा. एवं तदपि महाकाव्यस्य लक्षणम् अस्ति. यदा सर्गस्य अन्ते तु भिन्नं छन्दः प्रयुज्य श्लोकः अस्ति चेत् तद् सर्गस्य अन्तसूचकं भवति. सर्गस्य अन्तः प्राप्तः इति सूचयितुं भिन्नछन्दसः प्रयोगः क्रियते. अत्रापि एवमेव प्राक्तनश्लोके पुष्पिताग्र इति वृत्तस्य प्रयोगः आसीत्. अत्र मालिनीवृत्तं मालिनीवृत्तं तदपि मङ्गलसूचकमपि अस्ति. आदिमङ्गलं मध्यमङ्गलम् अन्तमङ्गलम् इति उच्यते. सर्गस्य अन्ते अपि मङ्गल श्लोकमथैव लक्ष्मीः त्वां समर्भ्येतु भूयः इति आशीर्वादात्मकं मङ्गलं सर्गस्य अन्ते प्रयुज्यते. अन्ते अपि अस्ति. पठामः श्लोकं. षट्चत्वारिंशः श्लोकः. विधिसमयनियोगाद्दीप्तिसंहारजिह्मं शिथिलवसुमघाधे मग्नमापयोधौ रिपुतिमिरमुदस्योदीप्यमानं दिनादौ दिनकृतम् इव लक्ष्मीस्त्वां समभ्येतु भूयः. विधिसमयनियोगात् दीप्तिसंहारजिह्मं शिथिलवसुम् अगाधे मग्नम् आपत्पयोधौ रिपुतिमिरम् उदस्य उदीयमानं दिनादौ दिनकृतम् इव लक्ष्मीः त्वां समभ्येतु भूयः. लक्ष्मीः त्वां समभ्येतु अभ्येतु प्राप्नोतु पुनः इति मङ्गलं सूचयति अन्तमङ्गलं. सर्गस्य अन्तिमः श्लोकः इति कारणात् मङ्गलसूचकः श्लोकः. त्वां लक्ष्मीः भूयः समभ्येतु कथम् इव इत्युक्ते दिनादौ दिनकृतम् इव. दिनस्य आदौ प्रातःकाले दिनकृतम् इव, दिनं करोति इति दिनकृत् सूर्यः. प्रातःकाले यथा सूर्यः प्रातःकाले सूर्यम् इव लक्ष्मीः एक अनुकूलसमये त्वां प्राप्नोतु. दिनादौ लक्ष्मीः दिनकृतम् इव, दिनादौ लक्ष्मीः त्वां समभ्येतु इति अर्थः स्वीकरणीयः. यथा प्रातःकाले लक्ष्मीः, लक्ष्मीः इति सूर्यपक्षे यदा कुर्मः तदा शोभा सौन्दर्यलक्ष्मीः इति स्वीकरणीयं. यथा सौन्दर्यलक्ष्मीः सूर्यं प्राप्नोति तथा लक्ष्मीः राजलक्ष्मीः त्वां प्राप्नोतु भूयः पुनः इति वदति. तत्र द्वितीयाविभक्त्यन्तं पदं सर्वं त्वाम् इति पदस्य विशेषणं भवति. समानसमे दिनकृतम् इति पदस्य अपि विशेषणं भवति श्लेषेन. पश्यामः अतः एकैकस्यापि अर्थद्वयं भवति. विधिसमयनियोगात् इति प्रथमं युधिष्ठिरपक्षे पश्यामः. विधिसमयनियोगात् विधिः दैवं, समयम् इति वयं जानीमः तद् पुण्यपापानां साक्षी एव विधिः इति उच्यते. यदा पुण्यपापानि तु पक्वानि भवन्ति तदा समयः पुण्यपापपाचकः भवति समयः इति उच्यते. अस्माभिः सङ्गृहीतानां पुण्यपापानां फलं यदा अस्माभिः जीवने अनुभूयते तदेव समयः इति उच्यते। पुण्यपापानां पाचकः भवति समयः, पुण्यपापानां साक्षी भवति विधिः। एवं विधि समयः एतयोः नियोगात् आदेशात् दीप्तिसंहारजिह्मः अस्ति इदानीं युधिष्ठिरः। दीप्ति नाम प्रतापः, प्रतापः संहृतः दृश्यते। प्रतापः इदानीं संहार संहृतः नाम प्रतापस्य अविद्यमानत्वात्, संहृतप्रतापः इति कारणात् जिह्मः अस्ति इदानीं युधिष्ठिरः। जिह्म नाम इत्यत्र प्रसन्नः नास्ति, अप्रसन्नः जातः युधिष्ठिरः। तादृशं युधिष्ठिरं, तादृशं त्वाम्। एतदेव सूर्यपक्षे कथम् इति पश्यामः। विधिसमयनियोगात् इत्यत्र विधिकारणात् एव सूर्यः अपि उदेति अस्तमेति किल, नियतिकृतनियमः एव किल। अतः विधि समयः इत्यत्र सायङ्कालसमयः, सन्ध्यासमयः नाम अस्तमनसमयः। अस्तमनसमयस्य नियोगात् विधि, अस्तमनसमयस्य च नियोगात् आदेशात् दीप्तिसंहारजिह्मं दिनकृतम्। दीप्ति नाम अत्र प्रकाशः, सूर्यस्य प्रकाशः संहृतः नाम नष्टः, नष्टप्रकाशः अत एव कुटिलः अस्ति सूर्यः अपि। तादृशं दिनकृतम्। अग्रिमं विशेषणं, शिथिलवसुं त्वां शिथिलवसुं दिनकृतं। त्वां पक्षे, युधिष्ठिरस्य पक्षे शिथिलवसु, शिथिलं वसु यस्य सः, सः शिथिलवसुः। वसु इति पदस्य सम्पद् धनम् इति अर्थः, कदाचित् बलम् इत्यपि अर्थः। अतः शिथिलं बलं यस्य सः, अथवा शिथिलं धनं, धनं सर्वं तस्य नष्टम् अभवत्, तस्य सम्पद् सर्वं नष्टा जाता किल। अतः शिथिलवसुः अस्ति युधिष्ठिरः, तादृशं त्वां युधिष्ठिरं। सूर्यस्य पक्षे शिथिलवसु, अत्र सूर्यस्य पक्षे वसु इति पदस्य किरणाः इति अर्थः, किरणाः अंशवः अथवा रश्मयः इति। शिथिलाः रश्मयः, तस्य किरणाः शिथिलाः विकीर्णाः सन्ति इति कृत्वा शिथिलवसु, वसुः अस्ति सूर्यः अपि। तादृशं दिनकृतं, दिनकृतपि शिथिलवसुः अस्ति, शिथिलवसुः अस्ति तादृशं दिनकृतम्। पुनः कीदृशं त्वाम् इत्युक्ते मग्नं त्वां, मग्नं दिनकृतं। कुत्र मग्नं त्वाम् इत्युक्ते आपत्पयोधौ, आपत् इति पयोधिः इत्युक्ते समुद्रः इति अर्थः, तस्य सप्तमी विभक्तिः पयोधौ समुद्रे। आपत् इति समुद्रे मग्नं त्वां युधिष्ठिरं लक्ष्मीः प्राप्नोतु इति। कीदृशः पयोधिः इत्युक्ते अगाधः पयोधिः, अगाधे पयोधौ इति आपत्पयोधौ इति पदस्य एकं विशेषणं। सामान्यसमुद्रः न, अगाधः समुद्रः, अगाधः आपद् आपद् इति समुद्रः, तस्मिन् मग्नः अस्ति युधिष्ठिरः। तावन्ति कष्टानि अनुभूतानि युधिष्ठिरेण इति कृत्वा एव अगाधे डीप् इति अर्थः, अगाधे आपत्पयोधौ मग्नं त्वाम् इति। तत्र सूर्यस्य पक्षे अगाधे पयोधौ, समुद्रे एव सूर्यस्य अस्तमनं भवति, पुनः प्रातःकाले पर्वतात् उदयः सूर्यस्य इति कविसमयः अस्ति। अतः पयोधौ मग्नं दिनकृतम्। गम्भीरे दुःखसमुद्रे निमग्नं त्वाम् इति युधिष्ठिरपक्षे, गम्भीरे दुःखसमुद्रे मग्नं दिनकृतम् इति तथैव स्वीकर्तुं शक्यते सूर्यस्य पक्षे अपि। अग्रे रिपुतिमिरम् उदस्य उदीयमानम्, रिपुः अन्धकार, तिमिर इत्युक्ते अन्धकारः इति अर्थः, रिपुः इत्युक्ते रिपु इत्युक्ते शत्रुः इति अर्थः। रिपुः तिमिरम् इव, रिपुः तिमिरम् इव, तिमिरसदृशः रिपुः अस्ति, तादृशं शत्रुम् उदस्य, उदस्य इत्युक्ते निरस्य इति अर्थः, रिमूव्ड् तिरस्कृत्य प्रातःकाले दिनादौ प्रातःकाले उदीयमानं त्वाम् उदीयमानम् उदीयते उदीयते इत्युक्ते उदेति इति अर्थः उदीयमानम् इति शानच् प्रत्ययः उद्गच्छन्तम् इति अर्थः उपरि आगच्छन्तं सूर्यम् इव उदीयमानं त्वाम् उद्गच्छन्तं त्वां भवन्तं सूर्यपक्षे अपि समानम् अन्धकारम् इति रिपुं तिरस्कृत्य प्रातःकाले उदीयमानं दिनकृतम् इव प्रातःकाले उदयं प्राप्नुवन्तं सूर्यम् इव दिनादौ इति पदस्य सूर्यपक्षे प्रातःकाले इति युधिष्ठिरपक्षे अनुकूलसमये शुभसमये इति स्वीकरणीयं दिनादौ इति पदस्य एतादृशं दिनकृतं सूर्यं लक्ष्मीः यदा प्राप्नोति लक्ष्मीः इति पदस्य सौन्दर्यम् इति अर्थः अत्र कारणम् उदयमानस्य सूर्यस्य तावत् सौन्दर्यं भवति न केवलं सौन्दर्यं सूर्यः तु सर्वान् लोकान् अपि सत्करोति सूर्यः तथा राजलक्ष्मीः त्वां प्राप्नोतु यदि राजलक्ष्मी भवतः समीपं भवन्तं प्राप्नोति चेत् सकलः अपि लोकः सुखम् अनुभवति इति अर्थः पुनः एकवारम् अर्थं पश्यामः विधिसमयनियोगात् दीप्तिसंहारजिह्मं दैवसमय आदेशात् प्रतिहत प्रतापेन अप्रसन्नं त्वाम् इति युधिष्ठिरपक्षे विधिसमयनियोगात् नाम सन्ध्यासमयनियमात् आदेशात् प्रकाशसंहारकुटिलं दिनकृतम् इति अर्थः अनन्तरं शिथिलवसुं शिथिलधनं त्वां युधिष्ठिरम् अत्र शिथिलकिरणं दिनकृतम् अगाधे आपत्पयोधौ निमग्नं त्वां युधिष्ठिरपक्षे अगाधे गंभीरे दुःखम् इति समुद्रे निमग्नं त्वाम् इति युधिष्ठिरपक्षे अत्र पश्चिमसमुद्रे गंभीरे समुद्रे निमग्नं दिनकृतम् इति दिनकरपक्षे अपि तदेव सूर्यपक्षे अपि तथा एवं रिपुतिमिरम् उदस्य उदीयमानम् अन्धकारसदृशं विद्यमानं शत्रुं तिरस्कृत्य नाशयित्वा उदयं प्राप्नुवन्तं ताम् कदा उदयं प्राप्नुवन्तं दिनादौ उदयं प्राप्नुवन्तं ताम् शुभे दिने उदयं प्राप्नुवन्तं त्वाम् इति युधिष्ठिरपक्षे अन्धकारम् इति शत्रुं नाशयित्वा जित्वा उदयं प्राप्नुवन्तं सूर्यं यथा लक्ष्मीः सौन्दर्यलक्ष्मीः प्राप्नोति अभ्येति तथा दिनादौ नाम शुभे दिने अनुकूले दिने शत्रून् जित्वा उदयं प्राप्नुवन्तं भवन्तं युधिष्ठिरं राज्यलक्ष्मीः पुनः प्राप्नोतु यथा सूर्येण सर्वः अपि लोकः मङ्गलं प्राप्नोति तथा भवता सर्वः अपि लोकाः मङ्गलं प्राप्नोति इति आशीर्वादात्मकं मङ्गलाचरणं वदति द्रौपदी अत्र पूर्ण उपमा अलङ्कारः एकवारं भावार्थं पठित्वा समापयामः हे राजन् रात्रौ समुद्रे मग्नः सूर्यः यथा प्रभाते अन्धकारं विद्राव्य पुनः शोभायुक्तः भवति लोकं च प्रकाशयति तथा आपत्सु मग्नः त्वमपि दैवस्य कालस्य च आनुकूल्येन शत्रुसंहारं कृत्वा विपदः उत्तीर्य विपदः इति अत्र द्वितीया विभक्ति द्विवचनं विपदः उत्तीर्य राज्यलक्ष्मीयुक्तः भव प्रजाश्च सुखेन पालय